ಶ್ರೀ ಪರಮಾತ್ಮನೇ ನಮಃ. ಯಥಾರ್ಥ ಗೀತಾ, ಶ್ರೀಮದ್ ಭಗವದ್ಗೀತಾ. ಭಗವಾನ್ ಶ್ರೀಕೃಷ್ಣ ಯಸ್ಮಿನ್ ಕಾಲೇ ಗೀತಾಯಾಃ ಸದುಪದೇಶಂ ಪ್ರಾದಾತ್, ತದಾನಿಂ ತಸ್ಯ ಮನೋಭಾವಾಃ ಕೀದೃಶಾಃ ಆಸನ್? ತೇ ಸರ್ವೇ ಮನೋಗತಾಃ ಭಾವಾಃ ವಕ್ತುಂ ನ ಶಕ್ಯಂತೆ. ಕೇಚನ ಸಂತಿ ಭಾವಾಃ ವರ್ಣಯಿತುಂ ಯೋಗ್ಯಾಃ, ಕೇಚನ ಭಾವಭಂಗಿಮಯೈವ ಪ್ರಕಟಯಿತುಂ ಅರ್ಹಾಃ. ಅಪರೇ ಶೇಷಾಭಾವಾಃ ಕ್ರಿಯಾತ್ಮಕಾಃ ಸಂತಿ, ತಾನ್ ಭಾವಾನ್ ಕೋಪಿ ಜನಃ ತತ್ಪಥಮಾರುಹ್ಯೈವ ಜ್ಞಾತುಂ ಶಕ್ನೋತಿ. ಯಸ್ಮಿನ್ ಸ್ತರೇ ಶ್ರೀಕೃಷ್ಣಃ ಆಸೀತ್, ತದೇವ ಸ್ತರಂ ಆತ್ಮಸಾತ್ ಕೃತ್ವೈವ ಕಶ್ಚಿತ್ ಸಾಧನಾಧನಃ ಪುರುಷಃ ಏವ ಜಾನಾತಿ ಯತ್ ಗೀತಾ ಕಿಂ ಕಥಯತಿ. ಸಹ ಮಹಾಪುರುಷಃ ಗೀತಾಯಾಃ ವಾಕ್ಯಮೇವ ವಾರಂ ವಾರಂ ನಾವರ್ತಯತಿ, ಪ್ರತ್ಯುತ ಗೀತೋಕ್ತ ಭಾವಾನ್ ಸ್ಪಷ್ಟರೂಪೇಣ ದರ್ಶಯತಿ. ಕುತೋ ಹಿ ಯಾ ಸ್ಥಿತಿಃ ಕೃಷ್ಣಸ್ಯ ಸಮಕ್ಷಂ ಆಸೀತ್ ಸೈವ ಸ್ಥಿತಿಃ ತಸ್ಯ ಮಹಾಪುರುಷಸ್ಯ ಪುರತಃ ಚಕಾಸ್ತಿ. ಏತಸ್ಮಾದ್ ಏವ ಸಹ ಮಹಾಪುರುಷಃ ಸನ್ನಿರೀಕ್ಷತೆ, ಜನಾನ್ ದರ್ಶಯಿಷ್ಯತಿ, ಜನೇಷು ತತ್ ಸಂಜಾಗರಯಿಷ್ಯತಿ, ತತ್ಪಥೆ ಚಾಲಯಿಷ್ಯತಿ ಅಪಿ. ಪೂಜ್ಯ ಶ್ರೀ ಪರಮಹಂಸಜೀ ಮಹಾರಾಜಾಃ ಅಪಿ ತತ್ಸ್ತರಸ್ಯ ಏವ ಮಹಾಪುರುಷಾಃ ಆಸನ್. ತೇಷಾಂ ವಾಣಿಭಿಃ ಅಂತಃಪ್ರೇರಣಾಭಿಶ್ಚ ಗೀತಾಯಾಃ ಯಃ ಅರ್ಥಃ ಸಂಪ್ರಾಪ್ತಃ ತಸ್ಯೈವ ಸಂಕಲನಂ ಯಥಾರ್ಥ ಗೀತಾ ಅಸ್ತಿ. ಸ್ವಾಮಿ ಅಡಗಡಾನಂದಃ. ಗೀತಾ ಮಾನವ ಮಾತ್ರಸ್ಯ ಧರ್ಮಶಾಸ್ತ್ರಂ ಅಸ್ತಿ ಇತಿ ಮಹರ್ಷಿ ವೇದವ್ಯಾಸಃ. ಶ್ರೀಕೃಷ್ಣ ಕಾಲಿಕಂ ಮಹರ್ಷಿ ವೇದವ್ಯಾಸಾತ್ ಪೂರ್ವಂ ಕಿಮಪಿ ಶಾಸ್ತ್ರಂ ಪುಸ್ತಕ ರೂಪೇಣ ನ ಉಪಲಬ್ಧಂ ಆಸೀತ್. ಶ್ರುತಜ್ಞಾನಸ್ಯ ಇಮಾಂ ಪರಂಪರಾಂ ಭಂಜಯನ್ ಅಸೌ ವೇದ ಚತುಷ್ಟಯಂ ಬ್ರಹ್ಮಸೂತ್ರಂ ಮಹಾಭಾರತಂ ಭಾಗವತಮೇವಂ ಗೀತಾಸದೃಶೇಷು ಗ್ರಂಥೇಷು ಪೂರ್ವಸಂಚಿತ ಭೌತಿಕಸ್ಯ ತಥಾ ಆಧ್ಯಾತ್ಮಿಕಸ್ಯ ಚ ಜ್ಞಾನರಾಶಿಂ ಸಂಕಲಿತಂ ಕೃತ್ವಾ ಪರಿಣಾಮೇ ಅರ್ಥಾತ್ ಅಂತೇ ಸ್ವಯಂ ಏವ ನಿರ್ಣಯಂ ದತ್ತವಾನ್ ಯತ್ ಸರ್ವೋಪನಿಷದೋ ಗಾವೋ ದೋಗ್ಧಾ ಗೋಪಾಲನಂದನಃ ಸರ್ವೇಷಾಂ ವೇದಾನಾಂ ಪ್ರಾಣಭೂತ ಉಪನಿಷದಾಂ ಸಾರಭೂತ ವರಿವರ್ತಿ ಗೀತಾ ಯಾಂ ಗೋಪಾಲಃ ಶ್ರೀಕೃಷ್ಣಃ ದುದೋಃ ಅಶಾಂತಂ ಜೀವಂ ಪರಮಾತ್ಮನಃ ದರ್ಶನೋನ್ಮುಖ ಸಾಧನಸ್ಯ ಸ್ಥಿತಿಂ ಶಾಶ್ವತ ಶಾಂತೇಃ ಸ್ಥಿತಿಂ ಯಾವತ್ ಅನಯತ್. ಅಸೌ ಮಹಾಪುರುಷಃ ಸ್ವಕೃತಿಷು ಗೀತಾಂ ಶಾಸ್ತ್ರಸ್ಯ ಸಂಜ್ಞಾಂ ದದಾನಃ ಸ್ತುತಿಂ ಕೃತವಾನ್ ಸಗರ್ಜಂ ಘೋಷಿತವಾನ್ ಚ
ಗೀತಾ ಸುಗೀತಾ ಕರ್ತವ್ಯಾ ಕಿಮನ್ಯೈ ಶಾಸ್ತ್ರವಿಸ್ತರೈಃ ಯಾ ಸ್ವಯಂ ಪದ್ಮನಾಭಸ್ಯ ಮುಕ್ಪದ್ಮಾದ ವಿನಿಸೃತಾ. ಭೀಷ್ಮ ಪರ್.
ಗೀತಾ ಸಮ್ಯಕ್ ಅಧ್ಯಯನಾನಂತರಂ ಹೃದಯ ಧಾರಣಾರ್ಹ ಯಾ ಪದ್ಮನಾಭಸ್ಯ ಭಗವತಃ ಶ್ರೀಮುಖಾನ್ ನಿಸೃತ ವಾಣಿ ಅಸ್ತಿ. ಪುನಃ ಅನ್ಯಶಾಸ್ತ್ರಾಣಾಂ ಸಂಗ್ರಹಸ್ಯ ಕಿಂ ಪ್ರಯೋಜನಂ? गीतायाः सारांशः निम्नश्लोकेन व्यज्यते।
एकं शास्त्रं देवकी पुत्र गीतम्, एको देवो देवकी पुत्रेव, एको मन्त्रस्य तस्य नामानि यानि, कर्माप्येकं तस्य देवस्य सेवा। गीता महात्म।
अर्थात एकमेव शास्त्रम अस्ति यत् देवकी पुत्रस्य भगवतः श्रीकृष्णस्य श्रीमुखाद् गायिता सैव गीता, एक एव प्राप्तव्यः देवः। तस्मिन् गायने यत् सत्यं प्रतिपादितं तद् एव अस्ति आत्मा। आत्मानं ऋते किमप्यपरं शाश्वतं नास्ति। तस्मिन् गायने सः महायोगेश्वरः किं जपनाय कथितवान्? ओम् अर्जुन, ओम् अक्षय परमात्मनः नाम अस्ति, तस्य जपं कुरु, ध्यानञ्च मम धारय। गीतायां वर्णितो धर्म एक एवास्ति। परमदेवस्य एकस्य परमात्मनः सेवा, तं श्रद्धया स्वहृदये निधेहि। अस्तु, प्रारम्भत एव गीता भवतां शास्त्रं समासीत्। भगवतः श्रीकृष्णस्य सहस्रवर्षानन्तरं परवर्तिनः ये महापुरुषाः एकमेवेश्वरं सत्यम् अब्रुवन्, ते सर्वे गीतायाः सन्देशवाहकाः आसन्। ईश्वराद् एव लौकिक तथा पारलौकिकसुखानां कामनाविधानम्, ईश्वराद् भयकरणम्, अन्यकमपि ईश्वरं न स्वीकरणम्, इयज्जावत् सर्वे महापुरुषाः शिक्षितवन्तः। किन्तु ईश्वरीयसाधना, ईश्वरं यावद् गन्तुं लक्ष्यनिर्धारणमेतत् सर्वं केवलं गीतायाम् एव साङ्गोपाङ्गं क्रमबद्धं सुरक्षितं वर्तते। गीतातः सुखशान्तिस्तु मिलत्येव, किन्तु इयम् अक्षयम् अनामयं पदमपि ददाति। पश्यन्तु गीतायाः प्राप्तगौरवप्राप्ता टीका यथार्थगीता। यद्यपि संसारे सर्वत्र गीतायाः समादरो वर्तते, पुनरपि इयं कस्यचित् धर्मस्य, सम्प्रदायस्य वा साहित्यपदं न प्राप्तवती। कुतो हि सम्प्रदायाः ययापि कयाचिद्दृढ्या निबद्धाः सन्ति। भारते प्रादुर्भूता गीता विश्वमनीषायाः न्यासभूता विराजते। अतो हि अस्यै राष्ट्रीयशास्त्रस्य सम्मानं समर्प्य उत्तमाधमयोः नाम ऊचनीच भेदभावस्य तथा कलहपरम्परातः पीडितविश्वस्य सम्पूर्णजनताभ्यः शान्तिप्रदानाय प्रयासः करणीयः। धर्मसिद्धान्तः एकः। तस्य प्रथमविचारः, सर्वे जीवाः प्रभुपुत्राः सन्ति।
ममैवांशो जीवलोके जीवभूतः सनातनः, मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति।
सर्वे मानवा ईश्वरस्य सन्ततयः सन्ति। द्वितीयः विचारः, मानवशरीरस्य सार्थकत्वम्।
किं पुनर्ब्राह्मणा पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकं इमं प्राप्य भजस्वमाम्।
आनंद विरहितं नश्वरमपि दुर्लभं मानव शरीरं लब्ध्वा मां भजस्व, अर्थात् भजनस्य अधिकारः मानव शरीरधारिणाम् एव अस्ति। तृतीयः विचारः, मनुष्यस्य केवले द्वे जात्यौ स्तः।
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च, दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु।
मनुष्याः केवलं द्विप्रकारकाः सन्ति, देवाः तथा च असुराः। यस्य हृदये दैवी सम्पत् कार्यं करोति स देवता, यत्र आसुरी सम्पत् कार्यं करोति स असुरः। तृतीया कापि जातिः सृष्टौ न विद्यते। चतुर्थः विचारः, निखिलकामनापूर्तिः परमात्मनः सुलभा।
त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते, ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान्।
माम् उपास्य जनाः स्वर्गम् अपि वाञ्छन्ति, अहमपि तेभ्यः स्वर्गं वितरामि, अर्थात् सर्वे कामाः ईश्वरात् सन्ति सुलभाः। पञ्चमः विचारः, भगवतः शरणागत्या पापक्षयः।
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि।
सकलपापजनेभ्यः अधिकाधिकं पापं कुर्वाणः अपि जनः ज्ञानरूपया नौकया पारं गच्छति असंशयम्। षष्ठः विचारः, ज्ञानम्।
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा।
आत्मनः आधिपत्ये सदाचरणं तथा तत्त्वार्थरूपं मम परमात्मनः प्रत्यक्षदर्शनं ज्ञानम् अस्ति। अतः अतिरिक्तं यत्किञ्चित् अस्ति तत्सर्वम् अज्ञानम्। अतः ईश्वरस्य प्रत्यक्षीकरणम् एव अस्ति ज्ञानम्। सप्तमः विचारः, सर्वेषाम् अस्ति भजने समानाधिकारः।
अपि चेत् सुदुराचारो भजते मामनन्यभाक् साधुरेव समन्तव्यः सम्यग् व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।
अति दुराचारः अपि जनः मां भजित्वा त्वरितं भवति धर्मात्मा एवं सत्स्वरूपां शाश्वतीं शान्तिं प्राप्नोति। अतः स एव धर्मात्मा कथ्यते यः परमात्मनि समर्पयति आत्मानम्। अष्टमः विचारः भगवत्पथे न बीजक्षयः।
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।
अस्य आत्मदर्शनस्य स्वल्पाचरणम् अपि जन्ममृत्योः महद्भयात् समुद्धारं करोति। नवमः विचारः ईश्वरस्य निवासः।
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया।
ईश्वरः सर्वेषां भूतप्राणिनां हृदये निवसति।
तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्।
सम्पूर्णभावेन तस्य एकस्य परमात्मनः शरणं प्राप्नुहि यस्य कृपया त्वं परमां शान्तिं शाश्वतं परन्धाम प्राप्स्यसि। दशमः विचारः यज्ञः।
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।
सर्वेषाम् इन्द्रियाणां व्यापारसमूहं तथा मनसः चेष्टासमूहञ्च ज्ञानप्रकाशप्रकाशिते आत्मसंयमस्वरूपे योगाग्नौ जुह्वति।
अपाने जुह्वति प्राणम् प्राणे पानं तथा परे प्राणापानगतिरुद्ध्वा प्राणायामपरायणा।
बहवः योगिजनाः श्वासे प्रश्वासं जुह्वति, प्रश्वासं श्वासे जुह्वति च। अनया रीत्या जातायाम् उन्नतावस्थायां केचन योगिनः श्वासप्रश्वासगतिम् अवरुद्ध्य प्राणायामपरायणाः जायन्ते। इत्थं योगसाधनस्य विधिविशेषः समुच्यते यज्ञः। तस्य यज्ञस्य क्रियान्वयनं कर्म कथ्यते। एकादशः विचारः यज्ञकरणस्य अधिकारः।
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य कुरु सत्तम।
यज्ञरहितजनाः पुनः मानव शरीरं न लभन्ते, अर्थात् ये मानव शरीरधारिणः सन्ति त एव यज्ञकरणाधिकारिणः। द्वादशः विचारः, ईश्वरः द्रष्टुं शक्यः।
भक्त्या त्वनन्यया शक्य अहमेवं विधोर्जुन, ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप।
अनन्य भक्ति द्वारेण अहम् प्रत्यक्षं द्रष्टुं ज्ञातुं प्रवेष्टुं च सुलभः अस्मि।
आश्चर्यवत् पश्यति कश्चिदेनम्, आश्चर्यवद् वदति तथैव चान्यः, आश्चर्यवच्चैनमन्यः शृणोति, श्रुत्वाप्येनं वेद न चैव कश्चित्।
इमम् अनश्वरम् आत्मानं केचन विरलाः पुरुषाः आश्चर्यवत् पश्यन्ति, अर्थात् इदमेव प्रत्यक्षं दर्शनम् अस्ति। त्रयोदशः विचारः, आत्मैव सत्यं सनातनं चास्ति।
अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्यैव च, नित्यः सर्वगतः स्थाणुः अचलोऽयं सनातनः।
आत्मैव सत्यम् अस्ति, सनातनः च अस्ति। चतुर्दशः विचारः, विधात्रा समुत्पन्ना सृष्टिः अस्ति नश्वरा।
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन, मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते।
स्वयं ब्रह्मा तथा तेन कृता सृष्टिः देवाः दानवाश्च दुःखानाम् आकराः क्षणभङ्गुराः नश्वराः सन्ति। पञ्चदशविचारः, देवपूजा।
कामैस्तैस्तैर्हितज्ञानाः प्रपद्यन्तेऽन्यदेवताः, तन्तन्नियममास्थाय प्रकृत्या नियताः स्वया।
कामनाभिर्येषां बुद्धिर्भवति आक्रान्ता, एवंविध मूढबुद्धयः ईश्वरमतिरिच्य अन्यान् देवान् अर्चन्ति।
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः, तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।
देवानाम् आराधकाः माम् एव आराधयन्ति, किन्तु पूजनमेतत् विधिविहीनम् अस्ति, अतो हि नश्यति।
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः, मां चैवान्तः शरीरस्थं तान् विद्यासुरनिश्चयान्।
सात्विकश्रद्धावन्तः देवान् पूजयन्ति, किन्तु तादृशान् पूजकान् त्वम् असुरं विद्धि। षोडशविचारः, अधमः।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु।
ये जनाः यज्ञस्य नियतविधिं परिहाय कल्पितविधिभिः यजनं कुर्वन्ति त एव क्रूरकर्माणः पापाचाराः तथा मनुष्याधमाः सन्ति। सप्तदशविचारः कोऽस्ति नियतो विधिः।
ॐमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहं स याति परमां गतिम्।
ॐ इत्यक्षरं ब्रह्मपरिचायकं, तस्य जपः तथा मयि एकस्मिन् परमात्मनि स्मृतिः स्मरणं वा तत्त्वदर्शिनां महापुरुषाणां संरक्षणे ध्यानम्। अष्टादशः विचारः शास्त्रम्।
इति गुह्यतमं शास्त्रम् इदमुक्तं मया नघ एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत।
शास्त्रं गीता अस्ति।
तस्माच्छास्त्रं प्रमाणन्ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।
कर्तव्याकर्तव्यनिर्धारणे शास्त्रम् एवास्ति प्रमाणम्। अतो हि गीतायां निर्धारितविधिद्वारा कर्तव्यम् आचरणम्। एकोनविंशतितमः विचारः धर्मः।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः।
धार्मिक प्रपंच बाहुल्यं विहाय मामेकं शरणं व्रज, अर्थात् एकस्मिन् परमेश्वरे पूर्णसमर्पणं धर्मस्य मूलमस्ति। तम् ईश्वरं प्राप्तुं नियतविधानुसारेण आचरणम् एव धर्माचरणम् अस्ति। द्वितीयाध्यायस्य चत्वारिंशत्तमः श्लोकः कथयति, एवं यो धर्माचरणं करोति स बहुपापोऽपि धर्मात्मा भवति। विंशतितमः विचारः धर्मप्राप्तिः कुतः करणीया।
ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।
अविनाशिनः ब्रह्मणः अमृतस्य शाश्वतधर्मस्य अखण्डैकरसानन्दस्य आश्रयः अहम् एव अस्मि, अर्थात् परमात्मनि लीनः गुरुरेवेतस्य सर्वस्य आश्रयः अस्ति। टिप्पणी, विश्वस्य सर्वेषां धर्माणां सत्याधारा गीतायाः प्रसारणम् एव अस्ति। प्राक्कथनम्। वस्तुतः साम्प्रतं श्रीमद्भगवद्गीतायाः टीकाकरणस्य न कापि आवश्यकता प्रतीयते। कुतो हि गीतोपरि शताधिकाष्टिकाः सन्ति विलिखिताः, यासु टीकासु पञ्चाशदधिकाः सुरभारत्याम् एव विलसन्ति। गीताम् आधारीकृत्य बहूनि मतानि अपि साम्प्रतं प्रचलन्ति। यद्यपि सर्वेषां मतानां मूलाधाररूपेण गीतैव विराजते, विचारणीयोऽयं प्रश्नः यत् भगवता योगेश्वरेण किमप्येकमेव सार्वभौमं तत्त्वं प्रतिपादितं, पुनरपि कालान्तरे मतभेदाः कुतः प्रादुरभवन्। यथार्थस्तु वक्ता किमप्येकमेव परिनिष्ठितं तत्त्वम् अभिव्यञ्जयति, किन्तु दशाधिकसङ्ख्याकाः श्रोतारः तु दशाधिकप्रकारेण वक्तुः आशयं विभाजयन्ति। जनानां बुद्धिपटले सत्त्वगुणस्य, रजोगुणस्य, तमोगुणस्य च यादृशः प्रभावः प्रभवति ते तेनैव स्तरेण तत्तथ्यं स्वीकुर्वन्ति, प्रचारयन्ति च। ततः अधिकं ते ज्ञातुं न प्रभवन्ति। अतो हि मतभेदाः सहजरूपेण भवितुमर्हाः। विभिन्नमतवादकारणात् कदाचिच्च एकस्यैव सिद्धान्तस्य विभिन्नसमये विभिन्नभाषासु च व्याख्यानात् सामान्यजनाः संशयापन्ना भवन्ति। नानाटीकायां मध्ये तस्य सत्यस्य धारा अपि प्रवहति, किन्तु वास्तविकार्थप्रकाशकः कः अपि एकः अपि ग्रन्थः सहस्राधिकटीकानां मध्ये चेत् संस्थापितः भवेत्, तदा तेषु टीकाग्रन्थेषु यथार्थप्रकाशकः ग्रन्थः कः अस्ति? निर्णयः अयं कठिनतरः भवति। वर्तमानकाले गीतायाः समुपलभ्यन्ते बहुसङ्ख्याकाष्टीकाः, सर्वाश्च ताष्टीकाः स्वकीयं स्वकीयम् एव सत्यम् उद्घोषयन्ति, किन्तु ताः सर्वाः टीकाः गीतायाः शुद्धार्थतः बहु दूरं दृष्टिपथायन्ते। निःसन्देहं कतिपयमहापुरुषाः सत्यस्य स्पर्शं कृतवन्तः, किन्तु कारणबाहुल्यात् ते सत्यम् अमृतकल्पं गीतायाः यथार्थम् अर्थं समाजस्य पुरतः प्रस्तोतुं न अशक्नुवन्। गीतायां श्रीकृष्णस्य मूलाशयस्य हृदयङ्गमकरणे विफलतायाः प्रमुखं कारणम् एतदस्ति यत् श्रीकृष्णः परमयोगीश्वरः आसीत्। श्रीकृष्णः यस्य स्तरस्य वार्ताम् आरभते तस्यां वार्तायाम् अनुस्यूतं तथ्यं प्रकाशयितुं यदा कश्चन महापुरुषः सोपानबद्धक्रमेण श्रीकृष्णस्य स्तरम् आरुह्य एव गीतायाः प्रतिपाद्यम् अक्षरशः प्रकाशयितुं कामयिष्यते, तदा स एव महापुरुषः सफलो भविष्यति गीतायाः यथार्थ रहस्योद्घाटने। सेनयोरुभयोर्मध्ये पार्थमुपदिशतः कृष्णस्य मनोभावाः कीदृशाः आसन्? ते सर्वे मनोभावाः सामान्यैः जनैः वक्तुं न शक्यन्ते। अस्तु, तदानीन्तनाः केचन भावाः प्रकाशनार्हाः। केचन भावाः भावभङ्गिमया प्रकाश्यन्ते, शेषाश्च भावाः क्रियाम् आश्रयन्ते, तद्भावं कश्चित् गीता भाव जिज्ञासुः गीता गीत पथ पथिक एव ज्ञातुं शक्नोति। श्री कृष्णः यस्यां स्थितौ विद्यमानः आसीत् तामेव स्थितिं संप्राप्य कश्चिन् महापुरुषः एव जानाति यत् गीता किं कथयति। स गीतायाः श्लोकानेव न अभ्यसति, प्रत्युत तेषां भावम् आत्मसात्कृत्य लोकहिताय प्रकाशयति। कुतो हि यद्दृश्यं कृष्णस्य समक्षम् आसीत् तदेव दृश्यं गीता तथ्यज्ञ महापुरुषस्य अपि समक्षं नरीनृत्यते। अतः असौ पश्यति, द्रक्ष्यति, दर्शयिष्यति, भवत्सु जागरयिष्यति च, तस्मिन् पथि चलितुं प्रेरयिष्यति च। पूज्याः श्रीमन्तः स्वनामधन्याः प्रातस्मरणीयाः श्रीपरमहंसमहाराजाः अपि श्रीकृष्णस्तरीयाः महापुरुषाः आसन्। तेषां प्रवचनोपदेशात् तथा अन्तःकरणप्रेरणातः यो ह्यर्थो मया ज्ञातः तस्यैव सङ्कलनं यथार्थगीता अस्ति। अत्र मदीयं किमपि नास्ति, इदं क्रियात्मकम् अस्ति। साधनस्वीकुर्वतां सर्वेषां पुरुषाणां गमनम् अस्यां परिधावेव अनिवार्यम्। यावद् असौ साधनपथपथिकः न अस्ति, तावत् सुस्पष्टम् अस्ति यद् असौ किमपि साधनं न साधयति, प्रत्युत वावावचनप्रमाणपुष्टां निरर्थकां कामपि रेखां पीडयति। अतः कस्यचिन्महापुरुषस्य शरणम् अवश्यमेव ग्रहणीयम्। श्रीकृष्णः किमपि अपरं सत्यं नोक्तवान्। ऋषिभिर्बहुधा गीतम्, ऋषिगणाः यस्य गानं बहुवारं कृतवन्तः तस्यैव गानं कर्तुम् अहम् आरभे। कृष्णः कदापि न इत्थम् उक्तवान् यत् तज्ज्ञानम् अहम् एव केवलं जानामि तथा अहम् एव उपदेक्ष्यामि, प्रत्युत स उक्तवान् यत् कस्यचित् तत्त्वदर्शिनः सन्निधौ याहि निष्कपटभावेन तस्य सेवां कृत्वा तज्ज्ञानं लभस्व। श्रीकृष्णो महापुरुषशोधितं सत्यमेव समुद्घाटितवान्। गीता सुबोध संस्कृतभाषायां समुल्लिखिता विद्यते। यदि अन्वयार्थमेव स्वीकुर्यां तदा गीतायाः अधिकांशः स्वयमेव बोद्धुं शक्यः, किन्तु जनाः समीचीनमर्थं न गृह्णन्ति। उदाहरणार्थं पश्यन्तु, श्रीकृष्णेन सुस्पष्टं कथितं यत् यज्ञस्य प्रक्रिया एव कर्म समुच्यते। पुनरपि भवन्तः भणन्ति यत् कृषिकरणमेवास्ति कर्म। यज्ञविवेचनं स उक्तवान् यत् यज्ञे बहवः योगिजनाः प्राणानाम् अपाने हवनं कुर्वन्ति, बहवः अपानस्य प्राणेषु हवनं कुर्वन्ति, बहवः योगिनः प्राणापानौ द्वौ निरुध्य प्राणायामपरायणा भवन्ति, बहवः योगिनः इन्द्रियाणां सकलां प्रवृत्तिं संयमाग्नौ जुह्वति। अनेन प्रकारेण श्वासप्रश्वासयोश्चिन्तनं यज्ञः प्रोच्यते। मनसा सहितेन्द्रियाणां संयमः यज्ञः अस्ति। शास्त्रकारः स्वयं यज्ञरहस्यं विवेचितवान्। पुनर्भवन्तः साल्हादं सोत्साहञ्च घोषयन्ति यत् विष्णुहेतवे स्वाहोच्चारणम् एव तथाग्नौ यवतिलादीनां हवनं यज्ञ इति। योगेश्वरः श्रीकृष्णः नैतादृशं किमपि शब्दं वापि च नोक्तवान्। किमस्ति कारणं यद् भवन्तः न अवबुध्यन्ते? लोमत्वकर्तनवत् वाक्यानां रटनं कृते सति किमस्ति कारणं यद् भवतां हस्ते केवलं वाक्विन्यास एव लगति? भवन्तः स्वकं कस्मात् कारणात् यथार्थज्ञानवञ्चितम् अनुभवन्ति? वस्तुतः मानवः जन्म लब्ध्वा क्रमशः तरुणो भवति, तदा पैतृकसम्पत्तिः नाम गृहम्, आपणं, भूमिः, उद्यानं, पदं, प्रतिष्ठाः, गावः, महिष्यः, यन्त्रोपकरणानि इत्यादि तेन उत्तराधिकारित्वेन अनायासम् एव सङ्गृह्यते। इत्थमेव सहजरूपेण असौ मानवसमाजे नैकाः रूढिपरम्पराः, पूजापद्धतीः च उत्तराधिकाररूपेण लभते। भारतवर्षे 33 कोटिपरिमिताः सुराः, सुराङ्गनाः च प्राप्तमान्यताकाः च मिलन्ति। विश्वस्मिन् तेषां देवसमूहानां बहूनि रूपाणि वर्णितानि सन्ति। शिशुः शनैः शनैः स्ववृद्धिविकासावसरे मातृ, पितृ, भ्रातृ, स्वप्रतिवेश्मिसन्निधौ तैः आचरितां पूजापद्धतिं पश्यति। परिवारे, समाजे च प्रचलितानां पूजापद्धतीनां अटलः संस्कारः तस्य मस्तिष्के भवति अङ्कितः। उत्तराधिकारे यदि भूतपूजा प्राप्यते तदासौ भूत भूत इति रटति। इत्थमेव कश्चित् शिवं, कश्चित् कृष्णं, कश्चिदन्यं कमपि देवादिकं सङ्गृह्य तिष्ठति। तत्पूर्वदुराग्रहं सः न उज्झितुं शक्नोति। उक्तप्रकारेण भ्रान्तिग्रस्ताः पुरुषाः कल्याणकरं श्रीगीतास्वरूपं शास्त्रं चेत् प्राप्नुयुः, तदा ते भ्रान्तमानसाः सुधोपमं गीतारसं न आस्वादयन्ति। पैतृकसम्पदं कश्चित् सम्भ्रान्तः पुरुषः कदाचित् शक्नोति त्यक्तुं, किन्तु पूर्वोक्तोत्तराधिकाररूपेण प्राप्तं रूढिसमूहं साम्प्रदायिकप्रपञ्चसमूहञ्च छेत्तुं न प्रभवति। पैतृकसम्पत्तिं परित्यज्य कश्चिज्जनः सहस्राधिकक्रोशमितं दूरस्थानं प्रव्रजितुं शक्नोति इति सुगमः पन्थाः, किन्तु मनसि, मस्तिष्के च अङ्कितास्ते रूढिगता भावाः त्यक्तगृहस्य तस्य जनस्य पिण्डं न जहाति। यस्मिन् शिरसि ते रूढिगता विचाराः सन्ति लुक्कायिताः, तच्छिरसः उत्कर्तनं सर्वथा असम्भवम्। अतः मानवः यथार्थशास्त्रसम्मतज्ञानम् अपि तासु पूर्वोक्तरूढिषु रीतिषु पूजापद्धतिषु मान्यतासु च सम्मिश्र्य विलीय वा लब्धुं वाञ्छति। यदि रूढ्यनुरूपमर्थः क्वचित् सङ्गच्छते, वार्ताक्रमः समन्वितः भवति, तदा जनः तत् स्वीकरोति यत् सत्यमेतत् नो चेत् सङ्गच्छते तर्हि तत् सर्वम् अलीकम्। एतस्मात् रूढिभ्रान्तदृष्टिवैषम्यात् जनः गीता रहस्यं नावबोद्धुं शक्नोति। गीतायाः रहस्यं रहस्यं भूत्वा दुर्लभायते। अतः गीता रहस्यस्य वास्तविक पारदृश्वानः संतजनाः सद्गुरवः एव सन्ति, त एव वक्तुं समर्थाः सन्ति यत् गीता किं कथयति। सर्वे गीता रहस्यं नावबोद्धुं शक्नुवन्ति। सर्वेषां कृते गीताज्ञानस्य सुलभोपायः अयम् एव अस्ति यत् कस्यचिन् महापुरुषस्य सान्निध्यं सम्प्राप्य सश्रद्धम् अध्येयम्। श्रीकृष्णः अपि महापुरुषस्य सान्निध्यप्राप्तये बलम् अददात्। गीताग्रन्थः कस्यचित् व्यक्तिविशेषस्य, वर्गविशेषस्य, जातिविशेषस्य, पथविशेषस्य, देशकालविशेषस्य च रूढिग्रस्त कस्यापि सम्प्रदायविशेषस्य अपि न अस्ति, प्रत्युत गीता सार्वलौकिकः, सार्वकालिकः, सार्वजनीनश्च धर्मग्रन्थः अस्ति। इयं गीता सर्वेषां भूमण्डलस्य देशानां मानवजातीनां प्रत्येकं नराणां नारीणां च कल्याणाय वरिवर्ति। केवलम् अपरोपदेशं श्रावं श्रावं तथान्यप्रकारेण प्रभावितः भूत्वा नैतादृशः कोऽपि निर्णयः स्वीकर्तव्यः यस्य प्रभावः स्वकीयम् अस्तित्वम् अपि विचालयेत्। पूर्वाग्रहस्य भावनातो मुक्तो भूत्वा सत्यान्वेषिणां कृते गीताग्रन्थः आर्षग्रन्थत्वात् प्रकाशस्तम्भरूपेण वा भाति। हिन्दूनामाग्रहः अस्ति यद्वेदाः एव प्रमाणम्, वेदस्यार्थः अस्ति ज्ञानम्, परमात्मनः बोधः। परमात्मा तु संस्कृते न च सङ्ग्रहिता ग्रन्थे राराजते। पुस्तकानि तु तस्य सङ्केतमात्राणि सन्ति। स परमात्मा तु हृदयदेशे जागर्ति। विश्वामित्रश्चिन्तयन् आसीत् तस्य भक्तिं दृष्ट्वा ब्रह्मा समाययौ, उवाच च अद्यतस्त्वं ऋषिः असि। किन्तु विश्वामित्रः सन्तुष्टः न बभूव, पुनश्चिन्तने लग्नः। किञ्चित् कालानन्तरं देवगणैः साकं ब्रह्मा पुनरागतवान्, अब्रवीच्च अद्यतस्त्वं राजर्षिः असि। किन्तु विश्वामित्रस्य समाधानं न अभवत्। विश्वामित्रः पूर्ववत् चिन्तने संलग्नः। ब्रह्मा दैवीसम्पद्भिः साकं पुनराजगाम कथितवान् च अद्यतः भवान् महर्षिः अस्ति। विश्वामित्रः स्वाभिप्रायं प्रकटयन् उक्तवान्, नहि मां जितेन्द्रियब्रह्मर्षिः इति कथनीयः भवता। ब्रह्मणा उक्तम् अधुना त्वं नासि ब्रह्मर्षिः। विश्वामित्रः पुनः तप्तुम् आरेभे। तस्य शिरः प्रदेशात् तपोधूमो निःसरितुं ललाग। तदा देवाः ब्रह्माणं निवेदयामासुः। तदा ब्रह्मा समुवाच विश्वामित्रं यत् साम्प्रतं त्वं ब्रह्मर्षिः असि। विश्वामित्रेण उक्तं यदि अहं ब्रह्मर्षिः अस्मि तदा वेदाः मां वृण्वन्तु। इति कथनसमकालमेव सर्वे वेदाः विश्वामित्रस्य हृदयदेशम् आविविशुः। यत् तत्त्वम् अविदितम् आसीत् सर्वं तत्तत्त्वं ज्ञातम् अभूत्। एष एव वेदः, न तु वेदपुस्तकम्। यत्र विश्वामित्र स्थितिः तत्र वेदनिवासः। श्रीकृष्णः अपि इदम् एव तथ्यं प्रकाशयति यत् संसारः अयम् अनश्वरः पिप्पलपादपः अस्ति, यस्य मूलम् उपरि परमात्मप्रतीकम्, अधोभागे प्रकृतिप्रतीकाः शाखाः प्रसृताः सन्ति। यो ह्यस्याः प्रकृतेः पारं गत्वा परमात्मानं वेत्ति स वेदविद् समुच्यते। अर्जुन, अहमपि वेदविदस्मि, अतः प्रकृतेः प्रसारावसानाभ्यां सह परमात्मनः समनुभूतेः नाम वेदः अस्ति। इयम् अनुभूतिः परमात्मप्रदत्ता अस्ति, अत एव वेदाः सन्ति अपौरुषेयाः इति कथयन्ति मनीषिणः। महापुरुषाः भवन्ति अपौरुषेयाः, तेषां माध्यमेन परमात्मनः सन्देशाः, उपदेशाः च सर्वसुलभाः भवन्ति। ते मनीषिणः परमात्मसन्देशप्रसारकाः नाम ट्रान्स्मिटराः भवन्ति। केवलं शब्दज्ञानस्य आधारेण, ज्ञानेन वा, तेषां प्रवचनस्वरूपायां वाण्यां निहितं यथार्थं परीक्षितुं न शक्यते। तान् महापुरुषान् स एव ज्ञातुं समर्थः भवति यः क्रियात्मकपथा चलित्वा पूर्वोक्ताम् इमाम् अपौरुषेयां स्थितिं लब्धवान् अस्ति। यस्य पुरुषः नाम अहम् परमात्मनि विलीनतां गतो भवेत्। वस्तुतः वेदः अपौरुषेयः अस्ति, किन्तु वेदम् आधारीकृत्य वक्तारः शतसार्धशतसङ्ख्याका महापुरुषाः आसन्। तेषां वचसां सङ्कलनम् एव वेदः समुच्यते, किन्तु यदा शास्त्रं लिपिबद्धं भवति तदा सामाजिकव्यवस्थायाः नियमाः अपि तेनैव सह लिपिबद्धाः भवन्ति। महापुरुषाणां नामाधारीकृत्य जनाः तेषां परिपालनं कर्तुम् आरभन्ते, यद्यपि धर्मेण साकं तेषां दूरस्थः अपि सम्बन्धः न भवति। आधुनिकयुगे मन्त्रिणाम् अग्रतः, पृष्ठतः, पर्यटन्तः, चाटुकारितया च सामान्यनेतारः अपि सक्षमाधिकारिद्वारेण स्वकीयं स्वकीयं कार्यं कारयन्ति। यद्यपि मन्त्रिगणाः पूर्वोक्तान् सामान्यनेतृगणान् जानन्ति अपि नहि। इत्थमेव सामाजिकव्यवस्थानिर्मातारः महापुरुषाणां व्याजेन जीविकानिर्वाहस्य व्यवस्थाम् अपि ग्रन्थेषु लिपिबद्धं कुर्वन्तः दृश्यन्ते। तेषां सामाजिकोपयोगः तत्तत्समयानुकूलो भवति। वेदानां सम्बन्धे अपि व्याजपूर्णा स्थितिः परिलक्ष्यते। वेदानां चिरन्तनं सत्यम् उपनिषत्सु सङ्ग्रहितम् अस्ति। तासाम् उपनिषदां सारांशः योगेश्वरश्रीकृष्णस्य वाणी गीता अस्ति। सारांशतः गीता अपौरुषेय वेदरसार्णवतः समुद्भूतोपनिषत् सुधासारसर्वस्वमस्ति। अनया रीत्या प्रत्येकं महापुरुषाः ये परमतत्त्वं प्राप्नुवन्ति ते स्वयमेव धर्मग्रन्थाः सन्ति। तेषां महापुरुषाणां वचसां सङ्कलनं संसारे कुत्रापि भवेत् तदेव सङ्कलनं शास्त्रं समुच्यते। किन्तु कतिपय धर्मावलम्बिनां कथनम् इदम् अस्ति यत् कुरान नामक पुस्तके यल्लिखितमस्ति तदैव सत्यमस्ति। इदानीं कुरानस्यावतरणं न भविष्यति। ईसा मसीहोपरि विश्वासं विना न स्वर्गसम्प्राप्तिः। स ईसा मसीह ईश्वरस्यैकमात्रमासीत् पुत्रः। साम्प्रतम् एतादृशः पुरुषः असम्भवः इति तेषां प्रौढा जटिला च रूढिवादिता। यदि परमात्मतत्त्वस्य साक्षात्कारः भवेत् तदा सैव स्थितिः पुनरागमिष्यति। गीता सार्वभौमग्रन्थः अस्ति। धर्माणां नामभिः प्रचलितेषु संसारस्य सर्वेषु धर्मग्रन्थेषु गीतायाः स्थानम् अद्वितीयम् अस्ति। इयं गीता केवलं धर्मशास्त्रमेवेति न ज्ञेयम्, प्रत्युद अन्येषु धर्मग्रन्थेषु निहितसत्यस्य मानदण्डम् अपि अस्ति। गीता तन्निकषोपलमस्ति यस्मिन् प्रत्येकं धर्मग्रन्थेषु अनुस्यूतं सत्यम् अनावृतं भवति, परस्परविरोधिकथनानां समाधानं भवति। प्रत्येकं धर्मग्रन्थेषु संसारे जीवननिर्वाहस्य कलायाः कर्मकाण्डस्य च बाहुल्यं विद्यते। जीविकानिर्वाहम् आकर्षकं विधातुं तथा तत्र किं करणीयं किं न करणीयम् एतद्विषयकं रोचकं भयानकं वर्णनकौतूहलयुतं चित्रणं धर्मग्रन्थानाम् उदरं परिपूरयति। कर्मकाण्डानाम् इमां परम्परां जनता धर्मरूपेण मानयति। जीवननिर्वाहस्य कलार्थं निर्मितपूजापद्धतिषु देशकालपरिस्थित्यनुसारेण परिवर्तनं स्वाभाविकमस्ति। धर्मस्य नाम समवलम्ब्य समाजे कलहस्य एतदेवैकं कारणमस्ति। गीता तु उपर्युक्तक्षणिकव्यवस्थातः उपरि चलित्वा आत्मिकपूर्णतायां प्रतिष्ठापयितुं क्रियात्मकम् अनुशीलनम् अस्ति। यस्याः गीतायाः एकः अपि कः अपि श्लोकः भौतिकजीवनयापनाय न अस्ति। अस्याः प्रतिश्लोकः भवन्तम् आन्तरिकयुद्धम् आराधयितुं प्रार्थयते प्रेरयति वा। तथा कथितधर्मग्रन्थानामिव गीतेयं स्वर्गप्राप्ति नरकान्मुक्ति इति द्वन्द्वात्मकजाले न निबध्नाति, प्रत्युत तस्य अमरत्वस्य उपलब्धिं कारयति। यस्य पश्चात् जन्ममृत्योर्बन्धनं सुतरां व्यवच्छिद्यते। प्रत्येकं महापुरुषाणां स्वकीया स्वकीया शैली तथा स्वीयाः स्वीयाः केचन विशिष्टाः शब्दाः भवन्ति। योगेश्वरः श्रीकृष्णः अपि गीतायां कर्म यज्ञ वर्णसंकर युद्ध क्षेत्र ज्ञान इत्यादीनां शब्दानाम् उपरि वारं वारं बलं दत्तवान्। एतेषां शब्दानां स्वकीयं विशिष्टं तात्पर्यम् अस्ति। स्वकीयं सौन्दर्यम् एतेषां शब्दानां पुनरावृत्त्या न क्षीयते। हिन्दीरूपान्तरे अपि तेषां शब्दानां तत्तदाशयः तथैव सुरक्षितः अस्ति। तथा आवश्यकस्थलानां व्याख्या अपि प्रस्तुता विद्यते। गीता प्रत्याकर्षणवर्धनाय निम्नप्रश्नानां समाधानं मृग्यम्। श्रीकृष्णः नाम एकः योगेश्वरः आसीत्। सत्यम् आत्मा एव सत्यमस्ति, सनातनः आत्मा एव सनातनः, परमात्मा तु सनातनः। सनातनधर्मः परमात्मनः प्राप्तौ सहायकव्यापारः। युद्धं दैवी तथा सुरी संपदां संघर्षः युद्धम् इति बोद्धव्यः। इमे दैवी संपदा सुरी संपदामिधे द्वे प्रवृत्ति, अंतकरणस्थे अनयोः उभयोः संहार एव युद्धस्य परिणामः। युद्धस्थानम् इमानि मानव शरीराणि समनावसीन्द्रियाणि च युद्धस्थानम्। ज्ञानम् परमात्मनः साक्षात्कारम् एव ज्ञानम् ज्ञेयम्। योगः संसारसंयोगवियोगाभ्याम् विरहितम् अव्यक्तब्रह्मणः मीलनमेव योगः समुच्यते। ज्ञानयोगः आराधनेव कर्म अस्ति, स्वम् आश्रित्य कर्मणि प्रवृत्तिर्ज्ञानयोगः अस्ति। निष्कामकर्मयोगः स्वेष्टे निर्भरो भूत्वा ससमर्पणम् कर्मणि प्रवृत्तिर्निष्कामयोगः। श्रीकृष्णेनोद्घोषितम् सत्यम् किमस्ति? श्रीकृष्णः तदेव सत्यम् उद्घोषितवान् यस्य प्रत्यक्षीकरणम् तत्त्वदर्शिभिः पूर्वमेव कृतम् तथा अग्रे करिष्यन्ति। यज्ञः साधनायाः सुविधिविशेषस्य नाम यज्ञः सम्बोधव्यः। कर्म यज्ञस्य कार्यरूपेण क्रियान्वयनं कर्म समुच्यते। वर्णः आराधनायाः एकः विधिविशेषः एव कर्म इति बोधव्यः। यस्याः समाराधनायाः चतुःश्रेणिषु विभाजनं, ता एव चतस्रः श्रेणयः वर्णनाम्ना सन्ति वर्णिताः। वर्णसङ्करः परमात्मनः प्राप्तिमार्गतः परिच्युतिः तथा साधने भ्रान्त्युदयो वर्णसङ्करः प्रसमुच्यते। मनुष्यस्य श्रेणयः अन्तःकरणस्य स्वभावानुसारेण मनुष्याणां श्रेणीद्वये विभाजनं भवति। एका श्रेणी देवताश्रयी, द्वितीया तु असुरीवृत्तिसमाश्रिता। इमे मानवानां द्वे जाति, ये स्वभावद्वारेणैव निर्धारिते विद्येते। अयं स्वभावः क्षीयते वर्धते च। देवताः हृदयप्रदेशे परमदेवत्वम् अर्जयितॄणां गुणानां समूहः देवत्वेन ज्ञेयः। आत्मव्यतिरिक्तं बहिष्ठदेवाराधनं मूढबुद्धेः अवदानम्। अवतारः व्यक्तीनां हृदये भवति नान्यत्। विराट्दर्शनं योगिनां हृदये परमात्मप्रदत्तानुभूतिः। परमात्मा यदा साधकस्य दृष्टौ प्रविशति तदैव साधकः परमात्मनः विराट् दर्शनं करोति। पूजनीयेष्टदेवः मात्रैकपरात्परब्रह्मैव पूज्यः देवः अस्ति। तस्य अन्वेषणस्य स्थानं हृदयमेव अस्ति। तस्य परमात्मनः प्राप्तेः स्रोतः तस्य अव्यक्तस्वरूपे स्थितिं प्राप्तवतां महापुरुषाणां कृपया दृष्टिपथम् आयाति। सम्प्रति भगवतः श्रीकृष्णस्य स्वरूपस्य ज्ञानाय तृतीयाध्यायपर्यन्तं पठनीयं भविष्यति। त्रयोदशाध्यायाध्ययनेन सुस्पष्टं ज्ञास्यति पाठकः यत् श्रीकृष्णः आसीत् योगीश्वरः। द्वितीयाध्यायतः एव सत्यं प्रकाशयिष्यति. सत्यसनातनं परस्परं एको द्वितीयस्य पूरकताम् आवहतः विषयः अयं द्वितीयाध्यायतः सुस्पष्टौ भविष्यति एवन्तु पूर्तिपर्यन्तं चलिष्यति विषयप्रवाहः. चतुर्थाध्यायं यावत् युद्धं स्पष्टताम् एष्यति. एकादशाध्यायं यावद् अध्ययनेन संशयः निर्मूलतामेष्यति. एवन्तु षोडशाध्यायं यावत् सम्यगनुशीलनीयं युद्धस्थलस्य मीमांसाहेतवे त्रयोदशाध्यायस्य पठनं मननञ्च भूयोभूयः करणीयम्. ज्ञानं चतुर्थाध्यायात् सुस्पष्टं भविष्यति. तथा त्रयोदशे अध्याये विधिवत् परिलक्षितं भविष्यति यत् प्रत्यक्षदर्शनस्य नाम ज्ञानम् अस्ति. योगः षष्ठाध्यायं यावत् बोधसुलभः सम्भविष्यति. एवन्तु सामान्यतया परिपूर्तिपर्यन्तं योगस्य विभिन्नांशानां परिभाषा सुग्रथिता सुशोभते. ज्ञानयोगः तृतीयाध्यायात् षष्ठाध्यायं यावत् अध्ययनेन सम्यक् बुद्धिगम्यः भविष्यति. पुनरग्रे पर्यालोचनस्य न कापि आवश्यकता परिशेषायते. निष्कामकर्मयोगः द्वितीयाध्यायतः समारभ्य पूर्तिपर्यन्तं वा भाति. यज्ञः तृतीयाध्यायतश्चतुर्थाध्यायं यावद् अनुशीलनीयं तेन यज्ञस्य स्पष्टीकरणं सुतरां भविष्यति. कर्मणः नाम द्वितीयाध्यायस्य नवत्रिंशत्तमे श्लोके प्रथमवारं समुल्लिखितम्. अस्मात् श्लोकात् चतुर्थाध्यायं यावत् पठेयुः तदा सुस्पष्टं भविष्यति यत् कर्मणः अर्थः आराधना तथा भजनं कस्मात् कारणात् भवति. षोडशसप्तदशाध्यायौ सम्मिल्य विचारम् इमं दृढयतो यदिदम् एव सत्यम् अस्ति. वर्णशङ्करः तृतीयाध्याये तथा अवतारः चतुर्थाध्याये सुतरां सुस्पष्टताम् एष्यतः. वर्णव्यवस्थायाः विवेचनार्थम् अष्टादशाध्यायः द्रष्टव्यः. सामान्यतः तृतीयचतुर्थाध्याये च मिलति सङ्केतः. मानवानां देवासुराणां जातिविभागज्ञानाय षोडशाध्यायः पठनीयः. विराट्दर्शनं दशमाध्यायाद् आरभ्य एकादशाध्यायस्य मध्यं यावद् अनुशीलनेन भविष्यति सुस्पष्टम्. सप्तमाध्याये नवमाध्याये पञ्चदशाध्याये अपि च विराटदर्शनोपरि विवेचनं कृतं लभ्यते. सप्तमे नवमे पञ्चदशेऽपि च अध्याये विषयेऽस्मिन् प्रकाशः विद्यते कृतः. सप्तमाध्याये नवमाध्याये सप्तदशाध्याये च बाह्यदेवानाम् अस्तित्वहीनता सुस्पष्टतां याति. परमात्मनः पूजनस्य मुख्यं स्थलं हृदयपटलम् एव अस्ति, यत्र ध्यानं श्वासप्रश्वासयोश्चिन्तनादयः क्रियाकलापाः यदैकान्ते सुखासीनः साध्यन्ते, नाम मन्दिरस्थप्रतिमायाः पुरतः नहि. तृतीये चतुर्थे षष्ठे तथा अष्टादशाध्याये च बहुस्पष्टमस्ति. अधिकचिन्तनविचारयोः किं प्रयोजनम्? यदि षष्ठाध्यायं यावदपि गीतायाः सुचारुपठनं सम्पद्येत तदापि यथार्थगीतायाः प्रमुखाशयः बुद्धिक्षेत्रे समवतरिष्यति। गीता जीविकासञ्चालनसङ्ग्रामस्य साधनं न अवबोद्धव्या, प्रत्युत जीवनसङ्ग्रामे शाश्वतविजयस्य शिक्षा अस्ति। अस्मात् कारणात् एव गीतेयं युद्धग्रन्थोऽपि वा भण्यते। अयं युद्धग्रन्थः वास्तविकं विजयं दापयति, किन्तु गीतोक्तं युद्धं खड्गधनुस्सायकपरश्वादिभिश्च विधीयमानं सामरिकं युद्धं नास्ति, न च अस्मिन् युद्धे शाश्वतिकविजयस्य उपलब्धिः। अयं गीताग्रन्थः सदसदुभयोः प्रवृत्त्योः सङ्घर्षः अस्ति। ययोः सङ्घर्षयोः रूपकालङ्कारम् अनुसृत्य वर्णनस्य विशदीकरणस्य वा चिरन्तना परम्परा प्रचलिता विद्यते। वेदे सुरेन्द्रवृत्रासुरयोः विद्याविद्ययोः, पुराणेषु देवासुरयुद्धानां, महाकाव्येषु रामरावणयोः कौरवपाण्डवयोः च निष्पन्नं सङ्घर्षम् एव गीतायां धर्मक्षेत्रकुरुक्षेत्रयोः दैवीसम्पदासुरीसम्पदोश्च सङ्घर्षं तथा सजातीयविजातीययोश्च सङ्घर्षं सद्गुणदुर्गुणयोश्च सङ्घर्षं सविस्तरं वर्णितं दृष्टिपथायते। अयं गीतोक्तसङ्घर्षः यत्र भवति तत्स्थलं कुहचनास्ति। गीतायाः धर्मक्षेत्रं कुरुक्षेत्रञ्च भारतीयभूभागस्य न कोऽपि भागः, प्रत्युत गीताकारस्य सशक्तशब्देषु इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते। कौन्तेय इदं शरीरमेव एकं क्षेत्रमस्ति, यस्मिन् सुप्तं सदसत् बीजं संस्कारानुसारेण निरन्तरम् अङ्कुरति प्ररोहति च। दशेन्द्रियाणि मनः बुद्धिः चित्तम् अहङ्कारः पञ्चविकाराः त्रिगुणविकाराश्च अस्य विस्ताराः कथ्यन्ते। प्रकृतिप्रसूतैः एभिः त्रिगुणप्रभावैः प्रभावितं प्राणिजगत् विवशीभूय कर्मणि प्रवर्तते। अयं मानवलोकः किं वा निखिलो जीवलोकः कर्मानुष्ठानं विना न क्षणमपि तिष्ठति। पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनं, जन्मजन्मान्तरैः एव इमां क्रियां कुर्वन्तः सन्ति प्राणिनः। इदमेवास्ति कुरुक्षेत्रम्। सद्गुरूणां सान्निध्येन साधनायाः समीचीनं पन्थानं समुपलभ्य यदा साधकः परमधर्मपरमात्मोन्मुखं भवति अग्रेसरः, तदिदं क्षेत्रं धर्मक्षेत्रं भवति। इदं शरीरम् एव क्षेत्रम् अस्ति। अस्य शरीरस्य अन्तराले अन्तःकरणस्य पुरातन्यौ द्वे प्रवृत्त्यौ विराजेते। एका प्रवृत्तिः दैवसम्पद्रूपा, द्वितीया तु असुरीसम्पत्स्वरूपा च। दैवीसम्पदि पुण्यरूपिणः पाण्डुजाः कर्तव्यस्वरूपा कुन्ती च इति जन्यजननीयुगलं वा भाति। पुण्यजागरणप्रभावात् पूर्वमेव मानवः यत्किञ्चित् कर्तव्यजातं परामृश्य करोति स्वमत्या असौ कर्तव्यम् एव विदधाति, किन्तु तेन कर्तव्यः न भवति। कुतो हि पुण्यं विना कर्तव्यस्य सम्यक् बोधः एव न भवति। कुन्ती पाण्डोः सम्बन्धात् पूर्वं यस्य कस्यचित् अर्थस्य उपार्जनं कृतवती स आसीत् कर्णः। आजीवनं कर्णः कुन्तीकुमारैः युधिष्ठिरादिभिः युध्यमानः अवर्तत। पाण्डवानां चेत् कश्चित् दुर्धर्षः शत्रुः आसीत् तदा असौ कर्ण एव विजातीयकर्मणा अस्ति कर्णः। य एव बन्धनकारकः अस्ति येन परम्परागतरूढीनां चित्रणं भवति, पूजापद्धतयः पिण्डं न मुञ्चति, जागृते पुण्ये धर्मस्वरूपः युधिष्ठिरः, अनुरागस्वरूपः अर्जुनः, भावरूपः भीमः, नियमरूपः नकुलः, सत्सङ्गस्वरूपः सहदेवः, सात्विकतास्वरूपः सात्यकिः, शरीरे सामर्थ्यस्वरूपः काशीराजः, कर्तव्यमाध्यमेन संसारोपरि विजयप्रतीकः कुन्तीभोजः इत्यादीनाम् इष्टोन्मुखमानसिकप्रवृत्तिवतां सदा भवति उत्कर्षः। येषां गणना सप्ताक्षौहिणीसेनारूपेण कृता विद्यते। अक्षपदं दृष्टिबोधकम् अस्ति। सत्यमयदृष्टिकोणेन यस्य सङ्घटनं भवति सा दैवीसम्पत्समुच्यते। परमधर्मस्य परमात्मनः प्राप्तिलक्ष्यदूरीं न्यूनीकरणाय सप्तैमे सोपानाः सप्तभूमिकाश्च सन्ति। न कापि गणना विशेषा, वस्तुतः उपर्युक्ते माः प्रवृत्तयः गणनातीताः। अपरस्मिन् पक्षे राराजते कुरुक्षेत्रं, यस्मिन् दशेन्द्रियाणि तथैकं मनः सम्मिल्य एकादशाक्षौहिणीसेना वर्तते। मनसा सहितेन दशेन्द्रिययुतेन दृष्टिकोणेन यस्याः सङ्गठनं कृतं विद्यते सा अस्ति असुरीसम्पत्। यत्रास्ति धृतराष्ट्रः अज्ञानस्वरूपः, यस्तु सत्यं जानानः अपि अन्धवत् आचरति। तस्य सहचारिणी अस्ति गान्धारी, इन्द्रियाधारवती प्रवृत्तिः। अनया सह मोहरूपी दुर्योधनः, दुर्बुद्धिरूपी दुःशासनः, विजातीयकर्मरूपी कर्णः, भ्रमरूपी भीष्मः, द्वैतस्य आचरणरूपी द्रोणाचार्यः, आसक्तिरूपी अश्वत्थामा, विकल्परूपी विकर्णः, अर्धसाधनायां कृपायाः आचरणरूपी कृपाचार्यः, तथा च एतेषां मध्ये जीवरूपी विदुरः विराजते। यस्तु निवसति अज्ञाने, किन्तु यस्य सुदृष्टिः सततं पाण्डवानाम् उपरि वर्तते, पुण्यप्रवाहितां प्रवृत्तिञ्च समाश्रयते। यतो हि आत्मा परमात्मनः शुद्धः अंशः अस्ति। अनया रीत्या आसुरीसम्पदोऽपि सन्ति अनन्ताः। इदं शरीरं तु क्षेत्रमेकमेवास्ति। अत्र युद्धोन्मुख्यौ द्वे प्रवृत्त्यौ वर्तेते। एका प्रवृत्तिः प्रकृतौ विश्वासं दापयति, सा निम्नाधमयोनिनां कारणं भवति। अपरा तु परमपुरुषे परमात्मनि विश्वासं प्रवेशञ्च कारयति। तत्त्वदर्शी महापुरुषाणां संरक्षणे क्रमशः साधनविधानेन दैवीसम्पदः समुत्कर्षः तथा आसुरीसम्पदश्च सर्वथा शमनं भवति। यदा कश्चित् विकार एव न अवशिष्टः, तदा मनसः सर्वथा निरोधः, निरुद्धमनसश्चापि विलयः भवति। तदानीं दैवी संपदा समाप्ते भवति अत्यावश्यकता। अर्जुन दृष्टवान यत् कौरव पक्षस्यानन्तरं पांडवपक्षीयाः योद्धारः अपि योगेश्वरे कृष्णे समाहिताः भवन्तः सन्ति। पूर्त्या सह दैवी संपदपि विलीयते। अन्तिमं शाश्वतं परिणामं भवति हस्तगतम्। अतः महापुरुषश्चेत् किमपि कर्म करोति तत् केवलं अनुयायिनां मार्गदर्शनार्थम् एव करोति। लोकसंग्रहस्य अनया भावनया महापुरुषाः सूक्ष्ममनोभावानां वर्णनं दृढस्थूलरूपं दत्त्वा अकार्षुः। गीता छन्दोबद्धा वर्तते, व्याकरणसम्मता च अस्ति, किन्तु अस्याः पात्राणि प्रतीकात्मकानि सन्ति। अमूर्तयोग्यतानां मात्र मूर्तरूपाणि सन्ति। गीतायाः प्रारम्भे 34 पात्राणां नामानि गृहीतानि सन्ति, येषु अर्धसंख्याकाः सजातीयाः तथा अर्धसंख्याकाः सन्ति विजातीयाः। केचन पाण्डवपक्षधराः, केचन तु कौरवपक्षीयाः। विश्वरूपदर्शनावसरे 5 नामानि पुनरायान्ति एतेषाम्। अन्यथा सम्पूर्णायां गीतायाम् एतेषां नाम्नां चर्चापि न मिलति। मात्र एकः अस्ति अर्जुनः, एतादृशं पात्रं य आदितः समाप्तिं यावत् योगेश्वरस्य समक्षं राराजते। असावर्जुनः अपि योग्यतायाः प्रतीकः अस्ति, न तु कश्चित् व्यक्तिविशेषः। गीतायाः प्रारम्भे सः अर्जुनः सनातनकुलधर्मस्य रक्षणहेतवे विकलः अस्ति, किन्तु योगेश्वरः कृष्णः इमाम् आकुलतां परम् अज्ञानम् अघोषयत्। उपादिशच्च अयम् आत्मैव सनातनः, शरीरं नश्वरम्, अतः युध्यस्व। अनेन आदेशेन नैतत् स्पष्टायते यद् अर्जुनः कौरवान् एव मारयेत्। पाण्डवपक्षीयाः अपि शरीरधारिणः आसन्, पक्षद्वये परस्परं सम्बन्धिनः सन्ति। संस्कारोपरि निर्भरं शरीरं किं खड्गेन द्विधा कृते सति समाप्तिमेष्यति? यदा शरीरं नश्वरम् अस्ति, नास्ति यस्य अस्तित्वं, तर्हि क आसीत् अर्जुनः? श्रीकृष्णः कस्य रक्षायाम् आसीत् स्थितः? किं कस्यचित् शरीरधारिणः रक्षायाम् आसीत् तत्परः? श्रीकृष्णः प्रावोचत्, यः शरीरयात्रार्थं परिश्रमं करोति असौ पापायुर्मूढबुद्धिः पुरुषः निरर्थकं जीवति। यदि श्रीकृष्णः कस्यचित् जीवधारिणः संरक्षणे सन्नद्धः वर्तते, तद् असौ अपि मूढबुद्धिः, व्यर्थं जिजीविषुः अस्ति। वस्तुत अनुराग एव अर्जुनः अस्ति। अनुरागिणां कृते महापुरुषाः सदैवोपस्थिताः प्राप्यन्ते। अर्जुनः शिष्यः आसीत् श्रीकृष्णश्चैकः, सद्गुरुः च। विनयावनतो भूत्वा असौ कथितवान् यद् धर्ममार्गे मोहितचेताः पृच्छामि अहं भवन्तं, यच्छ्रेयः परमकल्याणकारकं भवेत् तदुपदेशं माम् आख्याहि। अर्जुनः श्रेयस्कामः आसीत्, प्रेयः भौतिकपदार्थान् नहि, केवलम् उपदेशमात्रम् एव नहि, प्रत्युत साधयतु संभालयतु च। अहमस्मि शिष्यः तव शरणागतः च। इत्थमेव गीतायां स्थले स्थले सुस्पष्टम् अस्ति यद् अर्जुनः आर्तश्रेणिकः अस्ति अधिकारी, योगेश्वरः श्रीकृष्णः च एकः सद्गुरुः च। असौ सद्गुरुः अनुरागिणा सह सदैव संतिष्ठते, तस्यानुरागिणः पथप्रदर्शनञ्च करोति। यदा कश्चित् मनुष्यः भावुकताभिभूतः पूज्य महाराजस्य सन्निधौ संवासार्थम् आग्रहं करोति स्म, तदा महाराजः कथयति स्म, गच्छ शरीरेण कुत्रापि निवस, मनसा मम पार्श्वे समागच्छन् विचर, प्रातः सायं रामस्य शिवस्य ओमित्यस्य वा कस्यचित् द्वयक्षरस्य सार्धद्वयक्षरस्य नाम्नः जपं कुरु, मम स्वरूपञ्च हृदये निधेहि, मिनिटमेकमपि मम स्वरूपं धारयिष्यसि, तदा यस्य नाम भजनमस्ति तदहं तुभ्यं दास्यामि, इतोधिकं धारयितुम् इच्छति तदा हृदयेन सारथी भूत्वा त्वया सह स्थास्यामि। यदा सुरतो गृहीतो भवति तदा तदनन्तरं महापुरुष इत्थम् अन्तिकायते, यथा करचरणनासिकाश्रवणेन्द्रियाणि वर्तन्ते सन्निकटानि। भवान् महापुरुषतः सहस्राधिकक्रोशं दूरे वसतु, किन्तु स समीपे वसति। मनसि विचाराणाम् उत्थानात् पूर्वमेव ते पथनिर्धारणं कर्तुम् आरभन्ते। अनुरागिणः हृदयप्रदेशे सः महापुरुषः तादात्म्यभावेन जागर्ति। अर्जुनः अस्ति अनुरागप्रतीकः। गीतायाः एकादशाध्याये योगेश्वरश्रीकृष्णस्य ऐश्वर्यं समवलोक्य अर्जुनः स्वक्षुद्रत्रुटीनां कृते क्षमायाचनां कर्तुं प्रारभते। श्रीकृष्णः क्षमां कृतवान्, याचनानुरूपं सौम्यो भूत्वा उक्तवाञ्च, अर्जुन ममेदं स्वरूपं न पूर्वं कश्चित् ददर्श, न च कश्चित् द्रक्ष्यति। तदा तु गीतेयम् अस्माकं कृते व्यर्था, कुतो हि तस्य दर्शनस्य योग्यता अर्जुने सीमिता प्रतीयते। यदा तु तस्मिन्नेव काले सञ्जयोऽपि समवलोकयन् आसीत्। पूर्वमपि तेनोक्तं बहवः योगिजनाः ज्ञानरूपतपसा पूताः सन्तः मम साक्षात् स्वरूपं लेभिरे। अन्ततः असौ महापुरुषः किं वक्तुम् ईहते? वस्तुतः अनुराग एव अर्जुनः अस्ति, यो भवतां हृदये भावनाविशेषः अस्ति। अनुरागविहीनः पुरुषः कदापि पूर्वं न द्रष्टुं शशाक, न च अनुरागरहितः पुरुषः कदापि भविष्येऽपि द्रष्टुं शक्ष्यति। मिलहिन रघुपति बिनु अनुरागा, किये जोग तप ज्ञान विरागा। अतः अर्जुनः एकः प्रतीकः अस्ति। यदि नास्ति प्रतीकता तर्हि गीतायाः अनुशीलनं त्यज्यताम्। गीता नास्ति भवत्कृते तदा तु तस्य दर्शनस्य योग्यतासीत् सीमितार्जुनं यावत्। अध्यायस्य अन्ते योगेश्वरः निर्णयं ददाति। अर्जुन अनन्यभक्त्या श्रद्धया च अहम् उक्तप्रकारेण दर्शनार्थं यथा त्वं दृष्टवान् तत्त्वतः सुस्पष्टं ज्ञातुं प्रवेष्टुं च सुलभः अस्मि। अनन्यभक्तिः अपि अनुरागस्य द्वितीया विधा समुच्यते। एतदेव अर्जुनस्य स्वरूपम् अपि अस्ति। अर्जुनः पथिकस्य प्रतीकः अस्ति। अनेन प्रकारेण गीतायाः पात्राणि प्रतीकात्मकानि सन्ति, यथा स्थानं तेषां सङ्केतः वर्तते। भवेतां नाम कृष्णार्जुनौ कौचित् ऐतिहासिकौ पुरुषौ, निश्चितरूपेण अभवत् सम्पन्नं किमपि विश्वयुद्धं, किन्तु गीतायां भौतिकयुद्धस्य चित्रणं नास्ति कदापि। तस्य युद्धस्य मुखाग्रे समुद्वेगितः तु आसीत् अर्जुनः, न तु सेना। सेना तु युद्धे तत्परा आसीत्। किं गीतायाः प्रमुखोपदेशं दत्त्वा श्रीकृष्णः सव्यसाचिनी कौन्तेये सैन्ययोग्यतायाः प्रावीण्यं प्राशिक्षयत्? वस्तुतः साधनोल्लेखनम् अशक्यम्। सकलाध्ययनानन्तरम् अपि पठनपाठनयात्रा न भवति परिपूर्णा, किञ्चित् शेषायत एव। इयमेव प्रेरणा यथार्थगीता ज्ञेया। श्रीगुरुपूर्णिमा 1390 ख्रीस्ताब्दे जुलै मासस्य 24 दिनाङ्कः। सद्गुरुकृपाश्रयी जगद्बन्धुः स्वामी अडगडानन्दः।